इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिनशर्मा। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् अफ्रीकादेशः न केवलम् अपरिष्कृतवस्तूनां स्रोतरूपेण द्रष्टव्यः, अपि तु सः एतादृशेण महाद्वीपत्वेन द्रष्टव्यः यः मूल्यनिर्माणे सततविकासे च अग्रगण्यः स्यात्। नामीबियायाः संसत्सभायां सम्बोधयता श्रीमोदिना अफ्रीकीसङ्घस्य 63-2000-तमायाः कार्यसूचेः विशिष्य तस्य औद्योगिकीकरणलक्ष्येषु भारतस्य दृढप्रतिबद्धता पुनः प्रतिपादिता। तेनोक्तं यत् भारतं वैश्विकदक्षिणस्य विषये गम्भीरतया चिन्तां वहति। सहैव भारतं न केवलं स्वयमेव अपि तु समग्रजगता सह विकासे विश्वासं करोति। प्रधानमन्त्रिणा पुनः प्रतिपादितं यत् भारतं स्थानीयकौशलविकासाय, स्थानीयोद्योगनिर्माणाय, अफ्रीकायां स्थानीयनवाचारप्रोत्साहनाय च निरन्तरं निवेशं करिष्यति।
Our goal is to build together, not to take, but to grow together. Our development partnership in Africa is worth over $12 billion. But its real value is in shared growth and shared purpose. We continue to build local skills, create local jobs, and support local innovation. We believe that Africa must not be just a source of raw materials. Africa must lead in value creation and sustainable growth.
प्रधानमन्त्रिणा नरेन्द्र मोदिना घाना, त्रिनिदाड टोबेगो, अर्जेण्टीना, ब्राजील, नामीबिया इत्येतेषां पञ्चदेशानां स्वकीया सफलयात्रा सम्पादिता। स्वीययात्रायाः अन्तिमचरणे भारत नामीबिया देशाभ्यां प्रधानमन्त्रिणः नरेन्द्रमोदिनः उपस्थितौ नामीबियायाम् उद्यमिता विकासकेन्द्रस्य स्थापना सहैव स्वास्थ्यचिकित्साक्षेत्रे सहयोगश्चाधिकृत्य द्वयोः सन्धिपत्रयोः हस्ताक्षरं सम्पादितम्। अवधेयं यत् अस्य वर्षस्यान्ते नामीबियादेशे डिजिटल भुक्ति प्रणाल्याः समारम्भः भारतस्य नेतृत्वे संचालितयोः द्वयोः वैश्विक पदक्षेपयोः आपन्निवारक अवसंरचनायाः कृते गठबन्धनं सहैव वैश्विक जैवेन्धन गठबन्धनम् इत्यस्यान्तर्गतं नामीबिया देशस्य प्रवेशः च इत्येताः 3 प्रमुख घोषणाः समाहृताः। विदेश विभागस्य सचिवः दमू रविः अवदत् यत् नामीबियायाः राजधान्यां विंडहोक नगरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः सहैव नामीबियायाः राष्ट्रपतेः नेतुम्बो नन्दी नादेतवा इत्यनयोः मध्ये प्रतिनिधिस्तरीय वार्तावधौ विविधेषु प्रकरणेषु चर्चा समभवत्। एतस्यायां चर्चायां खनिज, हाइड्रोकार्बन, रक्षा, सहयोग, स्वास्थ्य, डिजिटल सार्वजनिक अवसंरचना, पर्यावरण, क्षमता निर्माणादि विषयाः सम्मिलिताः सन्ति। प्रधानमन्त्रिणा प्रोक्तं यत् भारत नामीबिया देशयोः मैत्री अतीव प्राचीना वर्तते। शिक्षामन्त्रिणा धर्मेन्द्र प्रधानेन प्रोक्तं यत् देशे शैक्षणिकज्ञानं सामाजिक कल्याणेन सह योजयित्वा समाजस्य आकांक्षाः पूरयितुं स्मार्ट रणनीति निर्माणस्य आवश्यकता वर्तते। नवदिल्ल्याम् एकस्मिन् समारोहे श्रीप्रधानेन प्रोदीरितं यत् भारतदेशः 70-2000-तमवर्षं यावत् शून्य कार्बन उत्सर्जनयुताम् ऊर्जां प्राप्तुम् अग्रे सरति। गृहसहकारितामन्त्री अमितशाहः अन्ताराष्ट्रियसहकारितावर्षस्य अवसरे गुजरातस्य, मध्यप्रदेशस्य, राजस्थानस्य च सहकारी समितिषु कार्यरताभिः महिलाभिः अन्यकार्यकर्तृभिश्च सह संवादम् अकरोत्। श्रीशाहेन कच्छजनपदस्य उष्ट्रप्रजनकमालधारी सहकारी समितेः मीरलबेन रबारी इत्यनया सहापि संवादः कृतः। क्रिकेट क्रीडायां भारत इंग्लैंड देशौ अद्य मध्याह्ने एंडरसन तेंदुलकर श्रृंखलायाः तृतीय टेस्ट स्पर्धायां स्पर्धिष्यतः। क्रीडा भारतीय समयानुसारं अपराह्णे 3:30 समारप्स्यते। बर्मिंघम नगरे विश्रान्तिं लब्ध्वा जसप्रीत बुमराह अस्यां टेस्ट क्रीडायां पुनरागत्य भारतदलं दृढीकरिष्यति। इति वार्ताः।